इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभायां षड्विंशत्यधिकद्विसहस्रतमवर्षस्य जनविश्वासप्रावधानानां संशोधनविधेयकस्य पारितेन देशे जीवनस्य सुगमतायै व्यापारस्य सुगमतायै च महति प्रोत्साहनं भविष्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। सामाजिकान्तर्जालीये सन्देशे प्रधानमन्त्री अवदत् यत् एतत् विश्वास आधारितां संरचनां सुदृढां करोति, नागरिकान् सशक्तिकरोति तथा च अप्रचलितान् नियमान् विनियमान् च निष्कासयति। श्रीमोदिना उक्तं यत् एतेन प्रकाराणां शीघ्र समाधानं सुनिश्चितं भविष्यति तथा च अपराधमुक्तिकरणस्य माध्यमेन विवादानां भारोऽपि न्यूनीभविष्यति। सः अग्रे अवदत् यत् विधेयकस्य प्रारूपेण स्वीकृतः परामर्शीयः उपागमः नवीनः अस्ति। ते सर्वे स्वस्य अन्तर्दृष्टेः योगदानाय संसदि अनुमोदनस्य समर्थनाय च प्रशंसनीयाः सन्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना रशियादेशस्य प्रथम उपप्रधानमन्त्रिणा डेनिस मन्टुरोव इत्यनेन सह दिल्लीनगरे मेलनं कृतवान्। उभौ व्यापार उर्वरक सम्पर्क क्षेत्रेषु जनानां परस्पर सम्बन्धेषु परस्परं लाभप्रदं सहयोगेषु च चर्चितवन्तौ। गतदिने सामाजिकान्तर्जालीये सन्देशे श्रीमोदी उक्तवान् यत् दिसम्बरमासे राष्ट्रपत्युः पुतिनवर्यस्य भारतयात्रायाः समये आयोजितस्य 23वां भारत रशिया वार्षिक शिखर सम्मेलने प्राप्तानां परिणामानां कार्यान्वयनार्थम् उभयोः पक्षयोः निरन्तरप्रयासानां स्वागतमस्ति। मुख्यनिर्वाचनायुक्तः ज्ञानेश कुमारः मालदा प्रकरणस्य अन्वेषणं राष्ट्रियान्वेषण अभिकरणाय समर्पितवान्। एनआईए दलम् अद्य पश्चिमबंगप्रदेशं प्राप्स्यति। सर्वोच्चन्यायालयेन मालदा मण्डले एसआईआर अभ्यासे संलग्नाः 7 न्यायिक अधिकारिणः बन्धकरूपेण ग्रहणं गभीरतया लक्षितम्। न्यायालयः एतत् निन्दनीयम् अमन्यत्। राज्यस्य गृहसचिवात् आरक्षिमहानिदेशकात् अन्येभ्यः अधिकारिभ्यः च तेषां निष्क्रियतायाः विषये प्रतिक्रियां याचितवान्। अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन स्वस्य महान्यायवादिनं पाम वोंडी इत्यमुं निष्कासितम्। सः ट्रुथ सामाजिक पटलीय सन्देशे एतत् घोषितवान्। तस्य स्थाने उपमहान्यायवादी टोड ब्लैंच इत्येषः कार्यभारं स्वीकरिष्यति। बोंडी इत्यनेन जेफ्री एफ्टीन इत्यनेन सम्बद्धानां पत्राणां विमोचनेन राष्ट्रपतिः ट्रम्पः अप्रसन्नः आसीत् इति कथ्यते। सः अवदत् यत् बोंडी निजीक्षेत्रे अत्यन्तम् आवश्यकं महत्वपूर्णञ्च नूतनं कार्यं प्रति प्रवर्तयिष्यति। संयुक्तराष्ट्रसंघस्य महासचिवः एंटोनियो गुटेरेस पश्चिम एशिया द्वन्द्वस्य शान्तियुत समाधानाय आह्वानम् अकरोत्। सः अवदत् यत् अमेरिका इस्रायल देशयोः च कृते अपरिमितां मानवानां क्लेशान् जनयमानं विनाशकारी आर्थिक परिणामान् जनयमानञ्च युद्धं स्थगयितुम् इदमेव उचितः कालः अस्ति। सः ईरान देशं एशिया देशानाम् उपरि आक्रमणं न कर्तुमपि उक्तवान्। एकस्मिन् ट्वीट सन्देशे सः अवदत् यत् यदा नेतारः विनाशस्य अपेक्षया संवादस्य चयनं कुर्वन्ति तदा संघर्षाः समाप्ताः भवन्ति। सः अवदत् यत् विकल्पः अद्यापि अस्ति, तत् अधुनैव करणीयम्। रक्षामन्त्री राजनाथसिंहः नवदिल्ल्याम् अनौपचारिक मन्त्रिसमूहस्य द्वितीयसभायाः अध्यक्षतां कृतवान्। एकस्मिन् सामाजिकान्तर्जालीये सन्देशे श्रीसिंहः परिस्थित्याः चतुर्विंशतिहोरासु निरीक्षणस्य महत्वम् अधोरेखितवान् तथा च सः कस्यापि आकस्मिकतायाः निवारणार्थं क्रमबद्धरूपेण प्रतिक्रियां दातुम् आवश्यकतायां बलं प्रदत्तवान्। मन्त्रिणा सूचितं यत् वर्तमानस्य पश्चिमेशिया द्वन्द्वस्य परिप्रेक्ष्ये सर्वकारेण कृताः उपायाः मन्त्रिसमूहाय सूचिताः। आईपीएल क्रिकेट क्रीडासु कोलकातानगरस्य ईडन गार्डन्स इत्यत्र सनराइजर्स हैदराबाद दलेन कोलकाता नाइट राइडर्स दलं 65 धावनांकैः पराजितम् इति वार्ताः।